आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः जतिन शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य जकार्तायाम् इण्डोनेशिया देशस्य प्रधान राष्ट्रपतिना प्रबोवो सुबियान्तो इत्यमुना सह द्विपक्षीय वार्तां विधास्यति। प्रधानमन्त्री श्रीमोदी राष्ट्रपति प्रबोवो इत्यस्य आह्वानेन तत्र त्रिदिवसीय आधिकारिक प्रवासे ह्यः एव जकार्ता नगरं सम्प्राप्तवान्। अत्रागमने तावत् इण्डोनेशिया वायुसेनायाः युद्धक विमानैः प्रधानमन्त्रिणः विमानस्य गगनमार्गे संरक्षणं कृतम्। सहैव विमानपत्तने राष्ट्रपतिना स्वयमुपस्थाय तस्य विशेषं भव्यं च स्वागतं विहितम्। एतादृशम् अभूतपूर्वम् अभिनन्दनम् अवलोक्य प्रधानमन्त्रिणा निगदितं यत् इयं वार्ता अष्टादशाधिकद्विसहस्रतमवर्षादारभ्य भारत इण्डोनेशिया व्यापकरणनीतिक सहयोगाय कञ्चन नूतनं वेगं प्रदास्यति। जकार्तायां प्रदर्शितानि मनोरञ्जक सांस्कृतिक प्रदर्शनानि श्लाघयन् प्रधानमन्त्रिणा प्रोदीरितं यत् एतानि प्रदर्शनशिल्पानि भारत इण्डोनेशिया देशयोः प्राचीन सभ्यतायाः संस्कृतेः आध्यात्मिक सम्बन्धानाञ्च प्रगाढतां प्रतिबिम्बयन्ति। अत्रावसरे प्रधानमन्त्रिणा तत्र इण्डोनेशिया छात्राणां समन्वय समूहेन कृतं भरतनाट्यनृत्यमपि भृशं प्रशंसितम्। स्वस्य विश्रामभवने प्रवासी भारतीयैः सह मिलित्वा तेन रामायणकथाधारितं प्रसिद्धं वायांगकुलित छायाखटपुतली प्रदर्शनं बौद्धिक भक्तिनृत्यञ्च अवलोक्य महान् हर्षः प्रकटितः। इण्डोनेशिया देशे भारतीय राजदूतस्य संदीप चक्रवर्तिनः अनुसारं प्रधानमन्त्रिणः अयं प्रवासः दक्षिणपूर्व एशियायाः अस्याः बृहत्तमायाः अर्थव्यवस्थायाः साकं भारतस्य रणनीतिक सम्बन्धान् उच्चतरशिखरं प्रापयिष्यति। ध्यानार्हं वर्तते यत् प्रधानमन्त्रिणः अस्य त्रिदेशीय इण्डो पैसिफिक प्रवासस्य एतत् प्रथमं चरणमस्ति। अतः परं सः अस्मिन्नेव सप्ताहान्ते ऑस्ट्रेलिया न्यूजीलैंड देशयोः अपि भ्रमणं विधास्यति। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन सामान्य सचिवस्य चम्पतरायस्य न्याससदस्यस्य डॉ अनिल मिश्रस्य च त्यागपत्रे स्वीकृतम्। कथितेन राममन्दिरदानवञ्चन प्रकरणे तयोः नाम प्रकाशात् परम् उभौ त्यागपत्रं प्रदत्तवन्तौ। कृष्णमोहनः नवनियुक्तिपर्यन्तम् अन्तरिम सामान्य सचिवरूपेण नियुक्तः। तस्य परिवादे कथितदान अनियमिततायाः प्रकरणे एफआईआर इत्यस्य पञ्जीकरणम् अभवत्, यस्मिन् अष्टजनाः निगडिताः। विदेशमन्त्री डॉ एस जयशंकरः बहरीन देशे तत्रत्येन नरेशेन हमद बिन ईसा अल खलीफा इत्यमुना साकं शिष्टाचारमेलनं विहितवान्। सहैव द्विपक्षीय सहयोगं सुदृढीकर्तुं प्रमुखचर्चाः अपि साधितवान्। विदेशमन्त्री कतरदेशस्य यात्रां परिसमाप्य स्वस्य उपसागरीय देशानां चतुर्देशीय प्रवासस्य द्वितीयचरणे बहरीन नगरं सम्प्राप्तवान्। अत्रावसरे सः बहरीन देशे निवसद्भिः प्रवासी भारतीयैः सह वार्तां साधितवान्। भारतर्तुविभागेन अद्य गुजरात सौराष्ट्र कच्छ मध्य महाराष्ट्र तटीय कर्नाटक प्रदेशेषु अतिवृष्ट्या सह प्रचण्ड वृष्ट्यै रेड अलर्ट इति रक्तवर्णीया सञ्चेतना प्रसारिता। आगामिदिनद्वयोः दिल्ली हरियाणा चण्डीगढ़ पंजाब बिहार छत्तीसगढ़ हिमाचल प्रदेश उत्तराखण्ड आन्तरिक कर्नाटक मध्यप्रदेश विदर्भ उपहिमालयी पश्चिम बंग सिक्किम राज्येषु प्रचण्ड वृष्टिः भविष्यति इति विभागेन पूर्वानुमानितम्। अण्डमान निकोबार द्वीपेषु आन्ध्रप्रदेशे गांगेय पश्चिम बंग प्रदेशे अरुणाचल प्रदेशे असमराज्ये मेघालये छत्तीसगढ़े नागालैण्डे मणिपुरे मिजोरम राज्ये त्रिपुरा राज्ये च अग्रिमेषु त्रिषु चतुर्षु दिनेषु मेघगर्जनेन सह विद्युद्योतनं झंझावातः च भविष्यति इत्यपि विभागेनोक्तम्। फुटबॉल क्रीडायां स्पेन देशेन गतरात्रौ डलास क्रीडांगणे राउंड ऑफ 16 क्रीडायां पोर्चुगल देशः 1-0 इत्यंकान्तरालेन पराजित्य फीफा विश्वकप क्रीडायाः प्रागुपान्त्यचक्रे स्थानं सुरक्षितम्। स्पेन इदानीं शुक्रवासरे लॉस एंजलिस क्रीडांगणे यूएसए बेल्जियम वा देशं सम्मुखीकरिष्यति। इति वार्ताः।